इयं आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः सुरेश चन्द शर्मा। इदानीं वार्ताः। केन्द्रशासने नव शासन संघटनात् पूर्वं नवदेहल्यां वार्ताक्रमाः सततरूपेण प्रवर्तिताः सन्ति। राष्ट्रिय जनतांत्रिक युतिदलं नव शासन रचनाय सज्जापरं दरीदृश्यते। अद्य राष्ट्रिय राजधान्यां राष्ट्रिय जनतांत्रिक युतिदलस्य संसदीय दलोपवेशनं भविष्यति। उपवेशने एतस्मिन् भारतीय जनता पार्टी इति दलं, तेलुगु देशम पार्टी इति दलं, जनता दल यूनाइटेड इति दलं, लोक जनशक्ति पार्टी इति दलं, शिवसेना सिंधे समूह दलं, युति दलस्य अन्येषां घटक दलानां नवनिर्वाचिताः सांसदाः सम्मिलिताः भविष्यन्ति। एतत्परं भाजपादलं जनतादलं च गतदिने नवदेहल्यां पृथक् पृथक् उपवेशने रते दृष्टे। श्रीनड्डावर्यस्य आवासे भाजपादलस्य वरिष्ठनेतृणां केन्द्रीयमन्त्रिणां च दीर्घोपवेशनं समायोजितम्। उपवेशने एतस्मिन् केन्द्रीयः मन्त्री अमितशाहः, राजनाथसिंहः, पीयूषगोयलः, प्रह्लादः जोशी, मनसुखमाण्डवीयः, अश्विनीवैष्णवः, भाजपादलस्य राष्ट्रियमहासचिवः तरुणचुगः, विनोदः तावडे, नैके वरिष्ठाः नेतारश्च सम्मिलिताः। जनता दल यूनाइटेड इत्येतस्य दलस्य नैके नेतारः दलाध्यक्षेण, बिहार प्रदेशस्य मुख्यमन्त्रिणा च नीतीशकुमारेण सह नवदेहल्यां तदीयावासे मेलनं कृतवन्तः। जनता दल यूनाइटेड इत्येतस्य दलस्य संसदीय दलोपवेशनमपि अद्य समायोजयिष्यते। INDIA इत्येतस्य महायुतिदलस्य नैकानि उपवेशनानि अपि लोकसभानिर्वाचनपरिणामानन्तरं सततं समायोज्यमानानि सन्ति। एतत्क्रमे तृणमूल कांग्रेसदलस्य महासचिवः, सांसदश्च अभिषेकः बनर्जी, दलनेता डेरेक ओब्रायन इत्यसौ च समाजवादी पार्टी दलस्य प्रमुखेण अखिलेश यादवेन सह तदीयावासे मेलनं कृतवन्तौ। अपरत्र आम आदमी पार्टी दलस्य राज्यसभा सांसदः राघवः चड्डा, शिवसेना उद्धव समूहस्य नेत्रा संजय राउत इत्येतेन सह मेलनं कृतवान्। नेपालस्य प्रधानमन्त्री पुष्पकमल दहलः प्रचण्डः प्रधानमन्त्रिणः नरेन्द्रमोदिनः शपथग्रहणसमारोहे सम्मिलितो भविष्यति। नेपालशासनस्य प्रवक्त्री रेखा शर्मा मन्त्रिपरिषदुपवेशनानन्तरम् एतत्सम्बद्धां घोषणां कृतवती। दूरभाषवार्तामाध्यमेन प्रधानमन्त्री दहलः लोकसभानिर्वाचने राष्ट्रिय जनतान्त्रिकयुतिदलस्य विजयोपलक्ष्ये प्रधानमन्त्रिणे मोदिने स्वीय शुभाशंसां प्रकाशितवान्। केन्द्रीय स्वास्थ्य मन्त्रालयेन राज्येषु केन्द्रशासित प्रदेशेषु च भीषणोष्ण प्रकोपमालक्ष्य गतदिने समीक्षोपवेशनं समायोजितम्। उपवेशने एतस्मिन् स्वास्थ्य महानिदेशकः डॉ अतुल गोयलः अखिलेऽपि देशे अग्निपराणां दुर्घटना प्रकरणानामपि समीक्षां कृतवान्। एतदुपवेशनम् आभासीय माध्यमेन समायोजितमासीत्। गाजाक्षेत्रे इज्राइल कृतेषु विमानाक्रमणेषु 30 फिलिस्तीन नागरिकाः मारिताः, अनेके जनाः घातिताः च, येषु अधिकांशः बालकाः महिलाश्च आसन्। मध्य गाजापट्टिकायां विस्थापितानां नुसिराट शिविरे एकं विद्यालयं लक्ष्यीकृत्य विमानप्रहारः कृतः। इज़राइलस्य युद्धक विमानेन न्यूनातिन्यूनं 30 कक्षासु बहुभिः प्रक्षेपणास्त्रैः प्रहारः कृतः इति स्थानीय सूचनाभिः जातम्। अन्ते च लक्ष्यभेदन स्पर्धायां सरबजोत सिंहेन पुरुषवर्गे 10 मीटर परिमितस्य लक्ष्यभेदनं कृत्वा स्वर्णपदकं विजितम् इति वार्ताः।